एसा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिः विद्यादेवी भण्डारी भासते भ्रष्टाचारस्य नियन्त्रणाय सम्बद्ध निकायानाम् कठोरेण प्रस्तुतिः आवश्यकी वर्तते। अधिकार दुरूपयोगानुसन्धानायोगस्य त्रिंशस्य स्थापना दिवसस्य समारोहम् ह्यः काष्ठमण्डपे सम्बोधयन्ती राष्ट्रपतिः भण्डारी राष्ट्रे भ्रष्टाचारे अनियन्त्रिते राज्यस्य स्रोतसाम् दुरूपयोगेन समग्र राज्य प्रणाली एव जर्जरा विधीयतेति हेतोः भ्रष्टाचारस्य नियन्त्रणाय कठोरेण प्रस्तुतेः आवश्यकताम् प्रादर्शयत्। राष्ट्रपतिः भण्डारी अभासत भ्रष्टाचारं प्रति शून्य सहनशीलताम् अवलम्ब्य समग्र समाजस्य अग्रेवर्धनम् आवश्यकं वर्तते। समारोहे प्रधानमन्त्री केपी शर्मा ओली अवोचत् भ्रष्टाचारस्य न्यूनीकरणाय राज्यस्य सर्वेषां निकायानाम् एकीकृत प्रयास आवश्यको वर्तते। प्रधानमन्त्री ओली अकथयत् आयोगेन भ्रष्टाचार विरोधी निरीक्षणस्य भ्रष्टाचार नियन्त्रणकारी विषयस्य च अतिरिक्त प्रभावकारी रूपेण अग्रेवर्धापनम् आवश्यकमस्ति। प्रधानमन्त्री ओली सर्वकारेण विहितस्य सुधारस्य कार्यैः सुशासनस्य स्थापनायां सहयोगः प्राप्तोस्तीति भाषमाणः। सर्वकारः अधिकार दुरूपयोगानुसन्धानायोगम् सबलयितुम् सर्वविधम् सहयोगम् विदधातीति प्रतिबद्धताम् व्यक्तवान्। प्रधानमन्त्री ओली आयोगे दायित्व कर्तव्य निर्वहणाय स्वच्छतया तटस्थतया च निर्णयन पूर्वकम् अग्रे प्रवर्धिते सति सर्वकारस्य कोऽपि हस्तक्षेपो न भवतीति समस्पष्टयत। कार्यक्रमे अधिकार दुरूपयोगानुसन्धानायोगस्य प्रमुखायुक्तः प्रेम कुमार राई अगदत् आयोगेन पञ्चवर्षीय रणनीतिक योजनया भ्रष्टाचार विरोधी न्यायिक प्रकरणानुसन्धानस्य कार्यम् अग्रे वर्धापितम् वर्तते। तदवसरे आयोगस्य आयुक्तः डाक्टर सावित्री थापा गुरूङ च विचारम् प्राकटयत। कार्यक्रमे राष्ट्रपतिना भण्डारिणा प्रधानमन्त्रिणा ओलिना च अनुसन्धाने कर्मचारी प्रशासने च उत्कृष्ट कार्यम् कुर्वद्भ्यो विभिन्नेभ्यः कर्मचारिभ्यः पुरस्कारः प्रदत्तः आसीत्। प्रतिनिधिसभाया विघटनस्य विरूद्धे नेपाल कम्युनिष्ट पार्टी प्रचण्ड नेपाल समूहेन ह्यः काष्ठमण्डपे जनसभा आयोजिता। भ्रिकुटी मण्डपे आयोजितायाम् विरोधसभायाम् नेपाल कम्युनिष्ट पार्टी प्रचण्ड नेपाल समूहस्य अध्यक्ष पुष्पकमलदाहाल प्रचण्ड अगदत् नेपाले शान्तिपूर्ण आन्दोलनम् भवत्येव। पूर्व प्रधानमन्त्री च अध्यक्ष प्रचण्ड प्रतिनिधिसभाया विघटनस्य विषये सर्वोच्च न्यायालयेन संविधानस्य मर्मण अनुरूपमेव निर्णेष्यते इति विश्वासम् व्यक्तवान्। सभायां पूर्व प्रधानमन्त्री माधव कुमार नेपाल प्रधानमन्त्रिणा संविधानम् उल्लङ्घ्य संसद विघटितेति आरोपयत। अपर पूर्व प्रधानमन्त्री झलनाथ खनाल अवोचत् लोकतन्त्रस्य रक्षायै आत्मभि मार्गे आगन्तव्यमभूत्। राजधान्या विभिन्नेभ्य स्थानेभ्य जनानां समूहा भ्रिकुटी मण्डपम् प्राप्ता आसन्। स्वास्थ्य जनसंख्या मन्त्रालयेन ह्यस्तन दिवसात् सर्वकारीय चिकित्सालयाः एव कोरोना संक्रमणोपचार चिकित्सालयाः निर्धारिताः सन्ति। मन्त्रालयस्य ह्यस्तने संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डाक्टर जागेश्वर गौतमः कोरोना संक्रान्तानाम् जनानाम् उपचाराय ह्यस्तन दिवसात् क्रियान्वयनत्वेन सर्वकारीय चिकित्सालयान् एव कोरोना संक्रमणोपचार चिकित्सालयत्वेन निर्धार्य सेवा प्रवाहणस्य व्यवस्था विहितेति अज्ञापयत्। प्रवक्ता डाक्टर गौतमः तत्पूर्वं कोविड चिकित्सालयस्य रूपेण निर्धारितेषु चिकित्सा महाविद्यालयेषु ह्यस्तनावधि पञ्जीकृत्य उपचाररतानां संक्रान्तानां जनानां ह्यस्तन दिवसात् दशदिनानाम् एव व्ययीभूतं वित्तं प्रदास्यते इत्यज्ञापयत्। एवमेव ह्यस्तन दिवसात् सर्वकारीय प्रयोगशालासु कोरोना संक्रान्तानां जनानां पीसीआर विधिना परीक्षणाय प्रतिपरीक्षणं सहस्रं रूप्यकाणि निर्धारितानि सन्ति इत्यज्ञापयत्। प्रवक्ता डाक्टर गौतमः कोरोना विरोधी द्वितीय चरणस्य टीकाकरणाभियानं फाल्गुन मासस्य द्वितीय दिवसात् प्रारभ्यते प्रारप्स्यते इति अबोधयत्। अत्रान्तरे ह्य अतिरिक्तेषु चतुस्त्रिंशदधिकैकशते जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। कोरोना संक्रमणात् ह्य अतिरिक्ता अष्टादशाधिकैकशतं जना मुक्ता सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। सर्वोच्च न्यायालये प्रतिनिधिसभाया विघटनस्य विरूद्धे पञ्जीकारिते न्यायिक प्रकरणे सर्वकारीय पक्षस्य विधि व्यवसायिनां विमर्शनम् ह्योऽपि अचलत्। ह्यस्तन विमर्शने प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः वरिष्ठाधिवक्तारः सुरेन्द्र भण्डारी बालकृष्ण न्यौपाने माधव बास्कोटा चेति पञ्चदश विधि व्यवसायिनो विमर्शनम् विदधानः प्रतिनिधिसभायाः विघटनस्य अधिकारः प्रधानमन्त्रिणि अस्तीति तर्कान् उपस्थापयन्। इतैः सांविधानिक व्यवस्थायाः अनुसारेणैव प्रधानमन्त्रिणा प्रतिनिधिसभा विघटितेति कारणेन पुनस्थापना भवितुम् न शक्नोतीति तर्काः उपस्थापिताः। प्रतिनिधिसभायाः विघटनस्य विषये सर्वोच्च न्यायालये अद्यापि श्रवणं प्रचलति। भारतीय तैल निगमेन शिला तैलीय पदार्थानां मूल्य विहिताया अभिवृद्धे अनन्तरं नेपाल तैल निगमेन अपि शिला तैलीय पदार्थानां मूल्यं वर्धापितमस्ति। निगमेन गतरात्रौ द्वादश वादनात् क्रियान्वयनत्वेन पाचन इन्धनस्य मूल्ये 25 रूप्यकाणि प्रवर्ध्य 1,400 रूप्यकाणि प्रापितानि सन्ति। निगमेन ह्यो विज्ञप्तिं प्रकाश्य पेट्रोल डीजल मृत्तिका तैलेषु प्रतिलिटरमितं रूप्यकद्वयं वर्धापितं वर्तते। बागमती प्रदेशस्य मुख्यमन्त्री डोरमणि पौडेलः कथयति शान्ति सुरक्षायाः विषये प्रदेश सर्वकारः संवेदनशीलो वर्तते। हेटौँडा उपमहानगरपालिकायाः 15 क्षेत्रस्य रातोमाटे वर्तिनः सशस्त्र प्रहरी गण मुख्यालयस्य नवनिर्मितं भवनं उद्घाटयन् मुख्यमन्त्री पौडेलः सुरक्षाकर्मिणो दायित्वबाहिनो भूत्वा सेवां प्रवाहयितुं निरदिशत्। मुख्यमन्त्री पौडेलः प्रदेश सर्वकारेण प्रहरी प्रशासनस्य क्षेत्रे कस्यापि विषयस्य न्यूनता भवितुं न दीयते इति प्रतिबद्धतां व्यक्तवान्। संचार सूचना प्रविधि मन्त्रालयस्य सचिवः रेडियो प्रसार सेवा विकास समिति अध्यक्षश्च हरिप्रसाद वस्यालः रेडियो नेपालेन प्रसारण क्षेत्रे अतिरिक्तं व्यावसायिकताम् विकासय प्रतिस्पर्धिना भाव्यमित्यत्र बलं ददाति। नेपाल पत्रकार महासंघस्य रेडियो नेपाल शाखाया ह्य सिंहप्रासादे सम्पन्नायां साधारण सभायां सचिवः वस्यालः अवदत् प्रसारण क्षेत्रे चिरकालिकेतिहासवाहकेन रेडियो नेपालेन जनतायां जागरणोद्भावनस्य अनुकूल सन्देशस्य प्रवाहणाय दायित्ववाहितया निष्ठया च क्रियाशीलेन भाव्यम्। रेडियो नेपालस्य कार्यकारी निर्देशकः बुद्धिबहादुर केसी अवदत् प्रसारण पत्रकारितां प्रभावकारिणीं विधातुं रेडियो नेपालः दायित्व वहनत्वेन सक्रियो वर्तते इति समाचारः।